I know I can.
So, hello everybody. One second, sorry. I should switch screen. Let's start with a bit of a recap of last class, and then I'm going to today's class. And if anybody has any questions, I request you to please save them till I give a break. I mean, I try to give break after every subtopic, so that if you can just type in your questions or ask your questions at the break, it would be great. I mean, if you keep messaging in between, it's a bit distracting for me and for the other organizer. So you can raise your hand anytime if you have a question, if you need to be solved then. Or when I give a break, you can ask any question. Okay, so shall we start? Ravi?
Recording? Yes, I'm recording.
Mangala Shloka Deva Arambha. Aham Vadami Anuvadantu. Yena Kshara Samam Nayam. Adhigamya Maheshwarat Kritsnam Vyakaranam Proktam Tasmai Paninaye Namaha Vakyakaram Vararuchim Bhashyakaram Patanjalim Paninim Sutrakaram cha Pranatosmi Munitrayam Munitrayam Namaskritya Padukti Paribhavya cha Vayyakarana Siddhanta Kaumudiyam Vidachyate Katakshayam yadyat adhita masit tat kinchidiva pashyama. Vyakaranam namakim vyakriyante nishpadyante shabdaha aneneti vyakaranam. Iti vyakarana shabdasyeva nishpatti. Vyakaranena mulataha kim kriyate ke shabdaha sahavaha ke shabdaha asahavaha sadha shabdana katham nishpatti prakriti pratye vivetanam kriyate. Tadeva Vyakaranam ityuchyate. Atra Vyakarane Asmakam Paniniya Vyakarane Munitrayam Trayaha Acharyaha Pramanibhutaha Sutrakaraha Paninihi Kartikakaraha Vararuchihi Bhashyakaraha Patanjalischa. Tataha Ashtadhyayaha Vishaye Siddhanta Kaumudyascha Vishaye Kinchid Adhitam Asit. Ashtadhyayi Paninina Virachitaha Sutra Granthaha Yatra Ashtau Adhyayaha Santi Atayava Tasyaha Ashtadhyayi Iti Nama Prati Adhyayam Pratyadhyayam Chatvaraha Padaha Prayena Chatusahasramitani Sutrani Santi Ashtadhyayam Siddhanta Kaumuditu Vritti Granthaha Prakriya Granthasta Siddhanta Kaumudya Ashtadhyayam Ye Sutrani Santi Tanyeva Sutrani Bhinnakramena Vyakshatani Kaumudya Sutrartham Sutranam Udaharanam Kinchit Vicharanta Kurvanti Bhattodhi Rikshitaha Bhattodhi Rikshitanam Kritihi Vayakarana Siddhanta Kaumudi Sutram Ityape Anhitam Sutrasya Lakshanani Sandhi Shata Lakshanani Alpaksharam Asandigdham Saravat Vishvatomukham Astobham Anavadyamcha Shadviram Sutra Lakshanam Athava Sutram Sutra Vido Viduhu Iti Shat Lakshanani Bhavanti Sutrasya Alpaksharam Nyuna Sankhyaka Varanayuktam Asandigdham Sandeharahitam Saravat Mahatsarayuktam Vishvatomukham Bhagushu Pradesheshu Prayoga Samarthyam Astobham व्यर्थ पद अथवा वर्णरहितम् अनवद्यम् निर्दुष्टं च सूत्रं भवति इति ज्ञातम्। तादृशानि सूत्राणि पाणिनीयव्याकरणे सन्ति। तानि च सूत्राणि षोडशा विभक्तानि, षड्विधानि सूत्राणि सन्ति। कानि च तानि इत्युक्ते संन्यास परिभाषा च विधिः नियम एव च अतिदेशः अधिकारश्च षड्विधं सूत्रमुच्यते। षड्विधान् सूत्राणि सन्ति संन्यासूत्राणि, परिभाषासूत्राणि, विधिसूत्राणि, यमसूत्राणि, अतिदेशसूत्राणि, अधिकारसूत्राणि च। किं नाम संन्यासूत्रम्? संज्ञा नाम नाम इति, नामधेयस्यैव संज्ञा इत्यपि उच्यते। व्याकरणे यानि पदानि विशिष्टेषु अर्थेषु उपयुक्तानि तानि पाणिनिना आदौ उच्यन्ते। इत्युक्ते वृद्धिः इति एकं पदमस्ति, लोके अपि वृद्धि इति पदस्य प्रयोगः अस्त्येव। वृद्धिः एधते, वर्धते इत्यर्थे वृद्धिः इति पदम् उपयुज्यते, किन्तु व्याकरणे सः अर्थः नास्ति। व्याकरणे यदा वृद्धिशब्दः उपयुज्यते तदा तस्य कः अर्थः? आकार एकार औकार, आकार ऐकार औकाराः इत्यर्थः। तस्मात् पाणिनिना वक्तव्यम्, तेन यानि पदानि शास्त्रीयानि पदानि उपयुज्यन्ते तेषां कः अर्थः? उदाहरणार्थं वृद्धिशब्दस्य कः अर्थः? आदै, आकार ऐकार उकाराः इति अर्थः। एवमेव बहूनि पदानि पाणिनिना उच्यन्ते, तानि च संज्ञासूत्राणि इति वदामः। संज्ञा, संज्ञा इस् अ टर्म्, अ टेक्निकल् टर्म् आफ् एनी शास्त्र इस् काल्ड् अ संज्ञा। In Vyakarana, particularly, we have lots of words which are used by Panini in a very particular sense. Some of them are completely arbitrary. Like Panini himself has created a few samyas. Panini naiva kanichana yadrichha shabda, kesana yadrichha shabda ha prayuktaha. Ti, ghu, bha, ityadini padani Panini na prayujyante. Achontyaditi, dadhadvada, ityadina. Taha api samyam. अपरञ्च लोके यानि पदानि सन्ति तानि भिन्ने अर्थे पाणिनिना प्रयुक्तानि सन्ति, तथैव लोके अपि अथवा पूर्वतन आचार्यैः यानि पदानि विशिष्टार्थे प्रयुक्तानि तान्येव पुनः पाणिनिना अपि प्रयुज्यन्ते। एवं बहुविधानि पदानि सन्ति येषाम् अर्थं पाणिनिना पाणिनिः वदति, ताः संज्ञासु, ताः संज्ञाः इत्युच्यते। They are all the technical terms which Panini defines in his own Shastra. He declares that if anywhere in Vyakarana you come across the term Vritti, it means A, I, Au. So all the terms which are very specific to this Shastra, he defines. They are all called as a Samya Sutra. Samya Sutras are those which give a name and define that term. They tell Vriddhi, Guna, Dhatu, Pratiparika, anything, and they define what is it. What is a Pratiparika in Vyakarana? What is a Dhatu? What is Vriddhi? What is Guna? Such sutras are called as Samya Sutra. And then, Tadha Paribhasha Sutrani. Sutranam Arthaha Katham Yatavyaha Iti Uchyate Paribhasha Sutrahi. Sutre किञ्चित् पदम् उपयुज्यते चेत् कस्याञ्चित् विभक्त्याम् अस्ति चेत् कः अर्थः? उदाहरणार्थं सूत्रे षष्ठ्यन्तम् एकं पदम् उपयुज्यते चेत् कः अर्थः? अथवा आदेशः क्रियते, आदेशः कस्य स्थाने करणीयः इति विचाराः। आगमः अस्ति, आगमः कुत्र कर्तव्यः? आदौ कर्तव्यो वा अन्ते कर्तव्यो वा? Parivhasha sutras are those which define the interpretation of rules. You have a rule, say you have iko yanachi. Ikaha yan achi ityasti. Ikaha iti shashti, yan iti prathama, achi iti saptami. Kaha arthaha? Shashtyaha kaha arthaha? Saptamyaha kaha arthaha? Yan iti, ikaha yan iti uchyate. Yan kutra kartavyaha? Ikaha prak kartavyova? Ikaha anantaram kartavyova? Ikaha sthane kartavyova? इत्यादयः संशयाः अवश्यं भवन्ति। तादृशानां संशयानां निवारणार्थं पाणिनिरेव नियमान् प्रकल्पितवान् अस्ति. तादृशाः नियमाः परिभाषाभिः उच्यन्ते. परिभाषा इति सूत्राण्यपि सन्ति, इत्युक्ते परिभाषासूत्राणि अपि सन्ति, तथैव पृथक् परिभाषाः अपि सन्ति. Paribhashas are always any rule which aids in the interpretation of a sutra. The paribhasha can be a sutra itself, or it can also be a rule which is not a sutra. That is, it might not be told by Panini, but it is still accepted in the Vyakarana Shastra. There are paribhashas. Here, a paribhasha sutra is a sutra which tells you how to interpret a sutra. Udaharanartham, Shashti Thane Yoga. यत्र यत्र सूत्रे षष्ठी विभक्तिः प्रयुज्यते तत्र स्थाने इत्यर्थः लभ्यते. इकः यण् अचि इत्युक्ते इकः स्थाने यण् स्यात्. धातोः अडागमः इति उक्तः चेत् तत्र स्थाने इति नास्ति, आगमः अस्ति. आद्यन्तौ टकि टौ इत्यस्ति. अस्य उदाहरणम् अनन्तरमपि पुनः ददामि, किन्तु इदानीमपि किञ्चित् उच्यते. तित् इति कश्चन आगमः अस्ति, अट् इति आगमः. लङ्लकारस्य रूपाणि सर्वे जानीमः. पठति इत्यस्य लङ्लकारे रूपं भवति अपठत् इति. तस्य पठ इति धातोः प्राक् अ इति आगमः अस्ति, अडागमः इत्युच्यते. सः आगमः धातोः विधीयते. धातोः अडागमः स्यात् इत्युक्ते धातोः पूर्वं भवेत् वा अनन्तरं भवेत् वा इति प्रश्नः. शुड् यु पुट् एन् आगम बिफोर् अ धातु और् आफ्टर् अ धातु? Or after whatever is told. Whenever you say there is an agama, there is always a question, where do you put the agama? So, there are paribhasha sutras which will tell you where, why. Or there are sutras which will tell you what is the meaning of specific vibhaktis. There are sutras which will tell you how to do an adesha, that is which one to replace. So, they are paribhasha sutras. Tani paribhasha sutrani iti ucchana. Tataha vishutrani. व्याकरणे अत्यन्तं प्रमुखानि सूत्राणि विधिसूत्राण्येव. विधिसूत्रैः किञ्चित् कार्यम् उच्यते. आदेशः स्यात्, प्रत्ययः स्यात्, आगमः स्यात्, यत्किञ्चित् करणीयमस्ति. प्रक्रियायां शब्दाः भवन्ति, तेषां किमपि परिवर्तनं भवति. यदि अस्माभिः करणीयं तर्हि विधिसूत्रेणैव करणीयम्. सुधी उपास्यः इत्यस्ति, तत्र ईकारस्य यकारादेशः कर्तव्यः. तदा इकोयणसि इति सूत्रेण आदेशः विधीयते. तस्मात् इकोयणसि इति विधिसूत्रम्. एवमेव तस्मिन् दिने दर्शितमासीत् राम इत्यस्ति. राम इति प्रातिपदिकात् सु इति प्रत्ययः करणीयः. सः प्रत्ययः सौदसमोच्छष्टाभ्यां इत्यादि सूत्रेण क्रियते. तदपि विधिसूत्रं. प्रत्ययं विधीय प्रत्ययं विदधाति तत्सूत्रम्. विधिसूत्र इस् वन् विच् which governs a particular process, which tells you that some change is to be done in some point. That is what Avidhi Sutra. Any change which is happening in a word or between letters or anywhere has to be governed by a Vidhi Sutra. Neither Samya Sutra nor Paribhasha Sutra can function by itself. The Samya Sutra only defines. It just tells you Vriddhi is this. Okay? The Paribhasha Sutra also only tells you how to interpret. It says if there is Shashti, do replace it or do an Agama or something like that. But neither Samya Sutra nor Paribhasha Sutra can bring about any change by itself. Himapi Parivartanam Kartum Nashakyate Samya Sutrenava Paribhasha Sutrenava Vidhi Sutrenaiva Yatkin Siddhapi Karyam Bhagatu Vyakarane Vidhi Sutrenaiva Karaniyam Vridhiradait Iti Vridhi Samya Vita. किन्तु तस्य प्रयोगः कुत्र भवति? मृदे वृद्धिः अथवा वृद्धिरेचि इति विधिसूत्रप्रदेशे एव संज्ञासूत्राणां परिभाषासूत्राणां च प्रयोगः. तस्मात् सर्वप्रमुखं विधिसूत्रमेव भवति. विधिसूत्र इस् वन् विच् इस् द मोस्ट् इम्पार्टेण्ट्. वि टेक् द हेल्प् आफ् अ संज्ञासूत्र एण्ड् आफ् परिभाषासूत्र टु प्रापर्ली इण्टर्प्रिट् अ विधिसूत्र. Neither of these can function by themselves. Tataha Niyama Sutram. Niyama Sutram, कश्चन सूत्रस्य प्रवृत्तिं नियामयति, अत एव नियमसूत्रम् इति उच्यते. उदाहरणं वदामि, तदेव ज्ञायेत. पतिस्समास एव इति नियमसूत्रमस्ति. कः प्रसङ्गः? पूर्वमेव शेषोऽभ्युपखि इति एकं सूत्रमस्ति. तेन इकारान्तानाम् उकारान्तानां शब्दानां बहुना घि इति संज्ञा विधीयते. देर् इस् अ सूत्र कॉल्ड् शेषोऽभ्युपखि विच् गिव्स् द संज्ञा घि. दट् इस् इट् डिफैन् द टर्म् कॉल्ड् घि एण्ड् इट् टेल्स् यू दट् घि इस् अ नेम् विच् इस् टु बि गिवन् टु आल् इकारान्त अण्ड् उकारान्त शब्दास् मोस्ट्लि इन् पुल्लिङ्ग. नौ पतिशब्द, पतिशब्दः अपि इकारान्तः पुल्लिङ्गशब्दः. तेन शेषोघ्यसखि इति सूत्रेण घिसंज्ञा प्राप्नोति. इट् हेस् द एलिजिबिलिटि टु गेट् द घि, द टर्म् घि फ्रम् शेषोघ्यसखि. किन्तु इदं नियमसूत्रम् किं नियामयति? पतिः पतिशब्दः समासे एव घिसंज्ञां प्राप्नोति. इट् गेट्स् द संज्ञा घि ओन्ली इन् समास. The Niyama Sutra is one which limits some other sutra. The Sheshobhyasakhi is applying everywhere. It is giving a name Ghi to all Ikaranta and Ukaranta Shabdas, Pullinga Shabdas. But this sutra comes and tells that if it is Pati Shabda, then only in Samasa it gets the Samya Ghi. That is why if you notice the Rupas, the Ikaranta, say Haraye, हरये हरेः हरेः. सिमिलर्लि इफ् इट् इस् पतिशब्द, ओन्ली पतिशब्द, प्लेन् पतिशब्द, द रूपास् आर् डिफरेण्ट् फ्रम् द हरिशब्द. द हरिशब्द गोस् हरिणा हरये हरेः हरेः, बट् द पतिशब्द गोस् पत्या पत्ये पत्युः पत्युः, रैट्? बट् इफ् यु गो टु पतिशब्द इन् अ समास लैक् भूपति, देन् इट् विल् बिहेव् लैक् हरिशब्द. Bhupataye, Bhupatehe, Bhupatehe. So, this Niyama Sutra limits the application of Ghi in case of Patishabda to only Samasas. In the absence of this Sutra, the Ghi Samya would have applied to Patishabda everywhere, but it limits that only in Samasa. You get the Ghi Samya. Anena Sutra Niyamyate, Samase Eva Patishabdase Ghi Samya, Anyatra Na Bhavati. तस्मादिदं नियमसूत्रम् इति उच्यते. ओके, बिफोर् वि गो टु द नेक्स्ट् टु टैप्स्, वुड् एनिबडि लैक् टु आस्क् एनिथिङ्ग्, एनी डौट् सो फार्?
Shri Karivardhan, I have unmuted him.
Namaste, Samya ji. While explaining the Niyama part, I mean, is it something, I mean, do I understand that it is like the exception rules are defined?
Exception, right? Purposely avoided the word exception because exception has a technical term called apavada. Yeah, the Niyama Sutras also behave like apavada. But there is a difference between what is technically an exception and a Niyama Sutra. So, as we go on, you'll know the difference.
Okay. Thank you.
Any other questions?
Please go ahead.
Am I audible? Very?
Yes, very audible.
So let's move on to the other two types of sutras, which takes a bit more explaining. Panchama idam sutram bhavati atidesha sutram iti. Atideshaha nama aropaha ityukte kashchana shabdaha asti tasya swarupe अन्यत् किं किमपि आरोप्यते. एतदपि उदाहरणद्वारा एव वदामि. क्रोष्टु इति शब्दः अस्ति. क्रोष्टुशब्दः उकारान्तः पुल्लिङ्गः. ఉదాహరణార్థం గురు శబ్దవత్ గురు గురు గురవ అథవా శంభు శంభు శంభవ ఇవత్ అనేనాపి భావ్యం. క్రోష్ఠ శబ్ద ఉకారాంత పుల్లింగ శబ్ద అనేన సూత్రేణ కిముచ్యతే క్రోష్ఠ శబ్ద తృజ్వత్ భవతి. తృజ్ ప్రత్యయాంత శబ్దవత్ క్రోష్ఠ శబ్ద భవతి. తృజ్ ప్రత్యయాంతాః శబ్దాః కే కర్తా హర్తా భర్త ఇత్యాదయః శబ్దాః సంతి. కృ ధాతోః కర్తృత్వ కర్తా ఇతి భవతి. కరోతి ఇతి కర్తా, హరతి ఇతి హర్తా, విభర్తి ఇతి భర్త ఇత్యాదయః త్రిదంతాః శబ్దాః సంతి. సర్వే ఋకారాంతాః. తృజ్ ప్రత్యయః తృ ఇతి శిష్యతే తచ్చ ఋకారాంతం. తస్మాత్ త్రిదంతాః సర్వే ఋకారాంతాః శబ్దాః. కర్తా కర్తారో కర్తారః, భర్తా భర్తారో భర్తారః ఇత్యాదీని రూపాణి సంతి. కిముచ్యతే పాణినా క్రోష్ఠ శబ్దః తృజ్వత్ భవతి. స్వయం త్రిదంతః నాస్తి, క్రోష్ఠ శబ్దః త్రిదంతః న, కింతు త్రిదంతవత్ భవతి ఇత్యుక్తే త్రిదంతవత్ రూపాణి ప్రాప్నోతి. క్రోష్ఠా క్రోష్ఠారౌ క్రోష్ఠారః, క్రోష్ఠారం క్రోష్ఠారౌ ఇతి ఆదౌ పంచసు విభక్తిషు త్రిజ్వత్ భవతి. అయమేవ అతిదేశః. త్రిజ్వద్భామః అతిదిశ్యతే. స్వరూపేణ క్రోష్ఠ శబ్దః త్రిదంతః నాస్తి, తథాపి త్రిదంతవత్ భవతి ఇత్యుక్త్వా త్రిదంతానాం స్వరూపః న అత్ర అతిదిశ్యతే. అత ఏవ అతిదేశః ఇత్యుచ్యతే. అతిదేశ సూత్ర ఇస్ దట్ విచ్ గివ్స్ సమ్ ప్రాపర్టీస్, గివ్స్ సమ్ ఎక్స్టర్నల్ ప్రాపర్టీస్ టు ఏ శబ్ద. లైక్ ఇఫ్ యు హ్యావ్ అ క్రోష్ఠ శబ్ద విచ్ ఇస్ ఉకారాంత పుల్లింగ, ఇట్ ఇస్ నాట్ త్రిదంత బై ఇట్ సెల్ఫ్. So it does not qualify to have forms like a tridanta. But Panini is saying, artificially you are giving some properties of tridanta to Kroshtha Shabda under some conditions. He says, in the first five vibhaktis, the Kroshtha Shabda is to be declined as a tridanta Shabda. So it behaves like Kartra, Hartra, Bhartra or any other tridanta Shabda under particular conditions. So, something which it does not have by itself, but that which is superimposed on it, imposed on it by an external condition. So, that sutra, the particular sutra which imposes the property of A on B. So, B is different from A. But artificially you are saying that some properties of A are to be imposed on B for some reason, for a prakriya, obviously. That sutra is called an Atidesha sutra. Kimapi karyam sadhetum kasminchit shabda swarupe anyasya shabdasya dharmaha aropyante sa eva Atidesha. This is a
Prayana
Atidesha sutra.
Padmaji has a question. Let me unmute her.
Sure.
Please go ahead, Padmaji.
హలో
హలో రామ్ 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 సౌమ్య.
హా రామ్ 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 టెల్ మీ
నథింగ్ ఐ యామ్ ఆల్సో హియరింగ్ యూ ఓకే నథింగ్ డౌట్
యూ హ్యావ్ ఎనీ
నో డౌట్
ఓకే ఫైన్ సో దట్ ఈస్ అబౌట్ ద అతిదేశ సూత్రం, అధికార సూత్రం. ఏకమేవ పదం అధికార సూత్రే సూత్రం నామ తస్య సూత్రస్య పృథక్తయా కోపి అర్థ నభవతి. అధికార సూత్రే యాని పదాని సంతి తాని ఉత్తర సూత్రేషు ఏవ ఉపయుజ్యంతే. బద్ధానే అర్థాభావే సతి ఆగామి సూత్రేషు అర్థం యోజయంతి అధికార సూత్రాన్ని. ఉదాహరణార్థం ప్రత్యయః ఇది ఏకం సూత్రమస్తి. తృతీయాధ్యాయస్య ప్రథమపాదస్య ప్రథమం సూత్రం ప్రత్యయః ఇది. ప్రత్యయః నామ కిం? కిమపి నాస్తి ప్రత్యయః ఇత్యేవ. ఇదం కిమపి విధిం న విధత్తే, సంజ్ఞామపి న వదతి. ఇట్ డస్ నాట్ డిఫైన్ ఎనీథింగ్, ఇట్ డస్ అండ్ నాల్ డస్ ఇట్ క్యారీ అవుట్ ఎనీ చేంజ్ బై ఇట్సెల్ఫ్. ఇట్ జస్ట్ సేస్ ప్రత్యయః. బట్ దెన్ ఇదం పదం అధ్యాయత్రయే तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये प्रतिसूत्रं प्रत्ययः 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 इति अनुवर्तते. उदाहरणार्थं कर्मण्यन इत्यस्ति चेत् प्रत्ययः कर्मणि अण् प्रत्ययः भवति. गुप्तिच्किभ्यः कन् इत्यस्ति चेत् गुप्तिच्कित् इत्येतेभ्यः कन् प्रत्ययः भवति. प्रतिसूत्रं प्रत्ययः इति पदम् अनुवर्तते. तदेव अधिकारसूत्रम्. अन् अधिकारसूत्र इस् अ सूत्र विच् डस् नाट् हेव् एन् इण्डिपेण्डेण्ट् application of its own. Okay. It only goes to every succeeding sutra and adds on to its meaning. For example, if you have an adhikara called pratyaya, the pratyaya adhikara goes from the beginning of the third chapter of Tashtadhyayi to the end of the fifth chapter. So in all the three chapters, that is 12 padas of the three chapters, in every sutra you have pratyaha, pratyaha, pratyaha going on. It tags along to all sutras and tells all these are pratyayas. This is why we have something called a pratyayadhikara. All suffixes in grammar are defined in that under that adhikara. So that it goes to every sutra and tells this is pratyaya, this is also a pratyaya, this is also a pratyaya. Similarly, you have angasya. It is an adhikara which goes from the first sutra of the fourth part of the sixth chapter. 641 is angasya. From 641 till the end of the seventh chapter you have angasya. So all karyas which have been defined in those one adhyaya plus one para will happen only if there is an anga. Angasya tyadhikaraha shashthadhyayasya chaturthapadayasya सप्तमाध्याय समाप्तिपर्यन्तं गच्छति. तत्र सर्वेषु सूत्रेषु अङ्गस्य इति अनुवर्तते. अङ्गस्य एतत् कार्यं भवति, अङ्गस्य कार्यं भवति इति सर्वेषु सूत्रेषु भवति. इदमेव अधिकारसूत्रम् इति उच्यते. सो दिस् सच् सूत्रास् आर् काल्ड् अधिकारसूत्रम्. सो देर् आर् सिक्स् टैप्स् आफ् सूत्रास्. षोडशसूत्राणि संज्ञासूत्राणि, परिभाषासूत्राणि, विधिसूत्राणि, नियमसूत्राणि, अतिदेशसूत्राणि, अधिकारसूत्राणि इति. आदौ व्याकरणशास्त्रे प्रवेशं यदा कुर्मः तदा आदौ संज्ञासूत्राणि ज्ञातव्यानि. पाणिनिनापि वस्तुतः प्रथमाध्याये प्रथमपादे बहुशः संज्ञासूत्राण्येव प्रणीतानि. तत्र प्रमुखाणि यानि संज्ञासूत्राणि तानि सङ्गृह्य दीक्षितैः संज्ञाप्रकरणम् इति कौमुद्याः प्रथमं प्रकरणम् आरभ्यते. सो दीक्षित इन् द फस्ट् प्रकरण आफ् कौमुदी हि कलेक्ट् सम् आफ् द इम्पार्टेण्ट् संज्ञासूत्रास्. टेल् यू इन् द बिगिनिङ्ग् दे आर् नाट् आल् द संज्ञासूत्रास्. एस् वि गो आन् एस् देर् इस् अन् अकेशन् हि डिफैन्स् फर्दर् सूत्रास्. दीस् आर् ओन्ली द मेन् टर्म् विच् यु नीड् टु बि अक्वैण्टेड् वित् बिफोर् यु स्टार्ट् यत् व्याकरणम्. व्याकरणाध्ययनं यदा क्रियते ततः आदौ एतानि संज्ञासूत्राणि ज्ञातव्यानि. एताः संज्ञाः अवश्यं ज्ञेयाः. एताः विना शास्त्रे व्याकरणशास्त्रे किमपि न चलति. तस्मात् आदौ संज्ञाप्रकरणम् इति कौमुदी आरभ्यते. एक्चुअलि एण्टरिङ्ग् द कौमुदी नौ वेर् दीक्षित स्थाचित महेश्वरसूत्र. Anything? Questions?
Lalita ji has a question. I'll unmute her. I'm unable to unmute her. Maybe she can type the question.
Sure.
Since there are no other questions, you can continue.
Oh, okay. इदानीं वस्तुतः कौमुदी आरभ्यते. आदौ माहेश्वराणि सूत्राणि इति अहं पठामि, भवन्तः सर्वे अनुवदन्तु. ऐ उन् ऋक् ए ओम् अयौच् हयवरट् lund, yamangananam, jabhai, ghadhadhash, jabagadadash, khapachachachachatatav, kapai, shoshasar, chal. Iti Maheshwarani Sutrani Anadi Samyarthani Esha Mantya Itaha Lan Sutre Akarascha Hakara Rishu Akaraha Uccharanarthaha कौमुद्याः पङ्क्तयः येषां समीपे सिद्धान्तकौमुद्याः पुस्तकमस्ति तत्र मूले एवमेव अस्ति आदौ चतुर्दश पात्राणि पठ्यन्ते अतः एताः पङ्क्तयः सन्ति अरुण ऋलृक् एवं अयौच् हयवरट् लण् यमगणनं झभै हधदश् जपगडदश् कपचथथौ कपै शशसत् हल् इत्येतानि माहेश्वराणि सूत्राणि इति उच्यन्ते संस्कृतभाषायाः या वर्णमाला अस्ति ये वर्णाः सन्ति ते एव अस्मिन् सूत्रराशौ सङ्गृहीतानि तस्मादेव अस्य अक्षरसमाम्नायः इत्यपि नामान्तरं वर्तते माहेश्वराणाम् अक्षरसमाम्नायः अक्षराणां समूहः इति अर्थः अस्ति इति नामान्तरं विद्यते तानि शिवसूत्राणि इति माहेश्वराणि सूत्राणि इत्यपि कथ्यन्ते एतान्येव सूत्राणि व्याकरणस्य मूलभूतानि प्रयोजनम् इति प्रश्नः उदेति माहेश्वराणि इत्यस्ति अस्माभिः पूर्वमेव उक्तमासीत् व्याकरणे आचार्यत्रयेण पाणिनिना वा उदगुचिना वा पतञ्जलिना वा यद्युच्यते यद्यदुच्यते तस्यैव प्रामाण्यमस्ति वि टेक् एस् फैनल् वाट् एवर् पाणिनि हेस् सेड् आर् वररुचि आर् पतञ्जलि हेस् सेड् एनि अदर् थिङ्ग्स् मेड् बै एस् इन् एनि अदर् थियरि विच् इस् पुट् फोर्त् बै अदर् ग्रमेरियन्स् बट् विच् इस् नाट् सपोर्टेड् बै दीस् त्री विल् नाट् बि कन्सिडर्ड् एस् प्रमाण इन् अवर् शास्त्र नौ दिस् is not exactly actually from Panini. So how this Pana is a question which might arise. That is why Dikshita says Maheshwarani Sutrani. Maheshwara Dadatani Maheshwarani. Those sutras which have come directly from Maheshwara. They are called Maheshwarani Sutrani. Ata eva akshara samamnayaha. Amnayaha nama vedaha. Vedanam adriksham pramanyam. अदृशमेव प्रामाण्यम् एतेषां सूत्राणामपि अस्ति किमर्थं महेश्वरेणैव महेश्वरादेव आगतत्वात् तस्मादेव माहेश्वराणि सूत्राणि इत्युच्यते किं प्रयोजनम् एतेषाम् इत्युक्ते वर्णाः सन्ति किमस्ति माहेश्वरसूत्रेषु वर्णानां काचन अनुक्रमणिका अस्ति यस्मिन् यस्याम् अनुक्रमणिकायां वयं ततः पठामः इत्युक्ते भाषा अध्ययन वर्णमाला पठ्यते सर्वैः कथं पठ्यते अ आ इ ई इत्यादिरीत्या स्वराः ततः तथ गन इत्यादिक्रमेण व्यञ्जनानि च पठ्यन्ते किन्तु अत्र तस्मिन् क्रमे नास्ति वर्णाः तस्मिन् क्रमे योजितानि न सन्ति वर्णाः एव दे आर् जस्ट् लेटर्स् सो वै आर् यू एक्चुलि यूसिङ्ग् दीस् लेटर्स् इन् दिस् पर्टिक्युलर् आर्डर् इफ् यु आस्क् द अनादि संज्ञार्थानि एतेषां माहेश्वराणां सूत्राणां प्रत्याहारकरणमेव प्रयोजनम् प्रत्याहारः इति उच्यते अण् अणादि इत्यादीनि अण् इत्यादयः प्रत्याहाराः इत्युच्यन्ते दे आर् नथिङ्ग् बट् अब्रिवेशन् आफ् लेटर्स् अण् इति सर्वे जानीयुः तथापि वदामि अकारादारभ्य मकारपर्यन्तं ये वर्णाः सन्ति ते अण् इति शब्देन उच्यन्ते अथवा अकारादारभ्य अत्र कश्चन नकारः अकारादारभ्य नकारपर्यन्तम् यथा च अ इ उ इत्येते वर्णाः अण् इति सङ्गृह्यन्ते. यत्र पाणिनिना वर्णत्रयं वक्तव्यमासीत् तत्र सः अण् इति निर्वाहं करोति. एवमेव अच् इत्युक्ते अकारादारभ्य चकारपर्यन्तं ये ये वर्णाः सन्ति ते सर्वे अच् इति प्रत्याहारेण सङ्गृह्यन्ते. एवं प्रत्याहारकरणम् एव एतेषां माहेश्वरसूत्राणां प्रयोजनम्. Maheshwara Sutra, the arrangement of letters in this particular order in the Maheshwara Sutra is meant for Pratyahara. A Pratyahara is an abbreviation. It is always has two letters. Any Pratyahara has two letters. One is the any letter joined with one of the last letters of the Shiva Sutras. Say you can do an, you can join a with k to form ak or a with ch to form ach. Or a with t to form at, and so on. You can also join a with n to form a, or a with ch to form h, etc. All these are called pratyaharas. What is the point of pratyaharas? Compression. If you remember our sutra lakshana, alpaksharam, it has to be as compressed as possible. And compression is, one of the techniques for compression is the use of pratyaharas. Everywhere, instead of saying a, e, o, r, r, a, o, a, r, o, he can just say ach. Similarly, instead of saying, all the vyanjanas, haya, varala, just say hal, and he would have covered all the vyanjanas. So, iti Maheshwarani Sutrani, anadi samyatthani, Maheshwara Sutranam, him prayodhanam, anadi samyakaranam. अण् अक् इक् इच् इत्यादि संज्ञाकरणमेव माहेश्वरसूत्राणां प्रयोजनम्. अणादिसंज्ञार्थानि अणादिसंज्ञाप्रयोजकानि माहेश्वराणि सूत्राणि. येषाम् अन्त्याः इतः इत् इति व्याकरणशास्त्रे प्रयुज्यमाना काचन संज्ञा अस्माभिः अधीतं. सूत्रेषु संज्ञासूत्राणि इत्यपि भवन्ति. व्याकरणशास्त्रे ये ये शब्दाः विशिष्टे अर्थे उपयुज्यन्ते ते सर्वे संज्ञाः इति कथ्यन्ते. तस्मात् इत् इत् इति काचन संज्ञा. इत् इत्युक्ते किम् इति अग्रे उच्यते पाणिना. इदानीम् इत् इति एका संज्ञा अस्ति. देयर् इस् अ टर्म् काल्ड् इत् 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 इस् अ टर्म् अ टेक्निकल् टर्म् विच् इस् यूस्ड् ओन्ली इन् व्याकरणम्. ओके, पाणिनि डिफैन्स् वाट् इस् इत्. हि आल्वेस् डिफैन्स् एनी संज्ञा विच् इस् बिफोर् दट् दीक्षित दीक्षिताः वदन्ति येषाम् अन्त्याः माहेश्वरसूत्रेषु अन्यः वर्णाः इत्युक्ते अ इ उ इत्यत्र नकारः, ऋक् इत्यत्र ककारः, ए ओम् इत्यत्र नकारः, चकारः, ककारः, तत्र पुनः नकारः, मकारः, ञकारः, एवं षकारः, तत्र तालव्यषकारः, व य रेफः लकारः. ये चतुर्दश वर्णाः सन्ति अन्तिमाः वर्णाः तेषाम् इत् इति संज्ञा विधीयते. दे आर् आल् काल्ड् इत्. वै दे आर् काल्ड् इत् विल् सी लेटर् बट् फर् नौ दे आर् काल्ड् इत्. एण्ड् इन् अडिशन् लण् सूत्रे अकारश्च येषाम् अन्त्याः इतः माहेश्वरसूत्रेषु अन्तिमवर्णानाम् इत् संज्ञा अस्ति. तथैव लण् इति सूत्रे यः अकारः लण्ति अत्र अस्ति लण् इति. तत्र के के वर्णाः सन्ति? ल् लकारः, अकारः, णकारः इति त्रयः वर्णाः सन्ति. लकारः, लकारात् परः अकारः, पुनः णकारः. तत्र येषाम् अन्त्याः इतः इत्युक्तत्वात् णकारस्य इत् इति संज्ञा जाता. पुनः वदन्ति लण् सूत्रे यः अकारः लकारात् परः यः अकारः अस्ति सः अपि इत् इति संज्ञां प्राप्नोति. द लास्ट् लेटर्स् आफ् ईच् आफ् दिस् माहेश्वरसूत्र आर् काल्ड् इत् अलाङ्ग् वित् दट् द अकार विच् इस् देर् आफ्टर् द लकार. इन् द सूत्र लण् देर् आर् त्री लेटर्स्. यु हेव् लकार एण्ड् अकार फालोयिङ्ग् इट् फालोड् बै णकार. सो अमङ्ग् दीस् त्री द अकार विच् फाल् So the lakara is also called it. Okay. Maheshwarani Sutrani Anadi Samyarthani Esham Antyaha Itaha Lansutra Akarascha. So automatically you have a question. Everywhere you see, say if you have higher varat, you have everywhere there is an akara. So you said the akara in lund is called it. What about all these? Lund sutra akaraha itsamyakaha ityukte. Atra sarveshu sutreshu sarveshu varnaihi saha yaha akaraha asti tasya kagatihi. Atra hakarottaram yaha akaraha, yakarottaram yaha akaraha, jhakarottaram yaha akaraha, tesham kim sthanam. హకారాదిషు అకారః ఉచ్చారణార్థః ఉచ్చారణ సౌలభ్యం కల్పయితుమేవ సర్వత్ర స్వరః యోజితః నియమః అపి అస్తి వ్యంజనానాం ఉచ్చారణార్థం స్వరస్య సాహాయ్యం ఆవశ్యకమేవ కేవలం హు యు వుర్ ఇత్యస్యేత శిరువృత్ ఇది ఉచ్చారణం కర్తుమేవ న శక్నుః తస్మాత్ ఉచ్చారణే సాహాయ్యార్థం సర్వత్ర అకారః యోజితః తత్ర అకారస్య అన్యత్ కిమపి స్థానం నాస్తి. కింటు లణ్ సూత్రే ఏస్మిన్ అత్రయః అకారః సః విశేషః సః ఇత్ ఇతి సంజ్ఞా ప్రాప్నోతి. మాహేశ్వరాణి సూత్రాణి అనాది సంజ్ఞార్థాని ఏషాం అంత్యాః ఇతః లణ్ సూత్రే అకారశ్చ హకారాదిషు అకారః ఉచ్చారణార్థః. హియర్ సో ఫార్
సమ్యజి. There are a couple of questions in the questions window. Can you look at those?
Okay. One question which Lalita ji has. How does one know about the end of Adhikara? The end of any adhikara is always known by commentaries, vyakshana. We have the bhashya and we have other vyakshanas which we treat as pramana in knowing where the adhikara ends. And then you can tell that pratyayadhikara begins here. So where, till where is what is the question which is answered by the commentaries. Is the mahaprana pa pronounced as pha or pa? It is pronounced as pha, joining both the lips. Pha is, the sound pha is not there in Sanskrit. It has to be pha, pha, va, bha, ma. All of them pronounced using both the lips. What does hakaradishu cover? Anything starting from ha of hayavarat till the ha of hal. All letters, all vyanjanas, ka, pa, sha, sha, whatever full vyanjanas you have, in all these letters, akara is for uccharanartha. Sarveshu vyanjaneshu. Hayavarat ityataha hakara dharathya. Ante hal paryantam. Yeya vyanjanani santi. Teshu sarveshu akara uccharanartha. Anya prashnaha?
Let's move on, Samyani.
Okay. Why is high included twice? Okay. Good question which requires I'll come to it. Uchyate hakaraha kimartham dvedha iti. Nantaram pratyahara karanartham punaha asya prashnasya uttaram yachham. Anya prashnaha? अग्रे पश्यामः. एवं कश्चन श्लोकः सर्वे जानीयुः बहवः जानीयुः. दत्तावसाने नटराजराजो ननादढक्कां नवपञ्चवारम् उद्धत्तकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्. एतेषां शिवसूत्राणां विषये प्रतीतिः वर्तते यत् पाणिनिः ईश्वरमुद्दिश्य तपः आचरितवान् तदा शिवः ప్రత్యక్షః భూత్వా స్వస్య ఢక్కా డమరు నవపంచవారం. నవ పంచ 9 ప్లస్ 5 14 చతుర్దశవారం ఢక్కాం ననాద. याः ध्वनयः धकायाः निःसृताः ताः एव पाणिनिना सूत्ररूपेण श्रुतानि. एक्चुलि हि सौण्डेड् हिस् ड्रम् 14 टैम्स्. द सौण्ड्स् विच् केम् औट् वेर् इण्टर्प्रिटेड् बै पाणिनि एस् द वर्णास् बिकास् द सेम् श्लोका सेत् सनकादिसिद्धान् उद्धर्तु कामः. शिवा sounded his drum to bless the sages like Sanaka. So the nada itself is also interpreted, that is the Shiva Sutras are also interpreted in terms of Brahma Jnana. There are granthas which tell A stands for something, E stands for something, U stands for something, and finally you end up with Brahma Jnana. But for Panini, being a Shabdika, what mattered was the Varnas, and so he interpreted them as Varnas. So, Etat Vimarshe Shiva Sutra Dharam. This is the, these are called as the Shiva Sutras. Coming on. Dikshitaihi ki muktam, esham antyaha itaha. Ityukte, Maheshwara Sutreshu ye antyavarnaha, esham ittiti samya prapati. Kintu ittiti samya, dikshitaihi vaktum na shakyate, panini naiva vaktavya. व्याकरणे यद्यदस्ति तत्सर्वं पाणिनिनैव वक्तव्यम् अथवा भाष्यकारेण वर्तिककारेण वा, अन्यथा प्रामाण्यं न भवति. पाणिनिना किमुक्तम् इति संज्ञाविषये पाणिनिः किं वदति चेत् हलम् इति अस्ति. प्लीज़् इग्नोर् वाट् एवर् द रेस्ट् हलन्त्यम् इति एकं सूत्रम् अस्ति. हलन्त्यम् इति सूत्रेण इति संज्ञा विधीयते. हल अन्त्यम् ये लघुसिद्धान्तकौमुदीम् अधीतवन्तः स्युः तेषामस्ति सूत्रस्य परिचयः भवति. तत्रापि हलन्त्यम् इति लघुसिद्धान्तकौमुद्याः प्रथमं सूत्रं. कः अर्थः? हल् उपदेशे अन्त्यं हल् इति स्यात् इत्युक्ते यत् दीक्षितैः एव उपदेशे सूत्रादिषु अन्त्यं हल्. हल् नाम व्यञ्जनं, सर्वे जानन्ति. हल् सन्धिः नाम व्यञ्जनसन्धिः. एवं हल् इत्युक्ते व्यञ्जनम्. उपदेशे अन्तिमं व्यञ्जनम् इति संज्ञां प्राप्नोति इति हलन्त्यम् इति ज्ञायते. हलन्त्यम् इस् अ संज्ञा सूत्र विच् डिफैन्स् वाट् इस् इट् अण्ड् हलन्त्यं टेल्स् अस् दट् एनी व्यञ्जन, एनी कान्सनेण्ट् विच् इस् अट् द एण्ड् आफ् अ सूत्र और् अ प्रत्यय और् एन् आदेश विल् गेट् द संज्ञा इट्. हलन्त्यम् इति सूत्रेण इति संज्ञा विधीयते. अत एव क्षितम् एषाम् अन्त्याः इतः. इतः केन सूत्रेण इत्सम्या इत्युक्ते हलन्त्यम् इति सूत्रेण इत्सम्या इति वक्तव्यम्. हलन्त्यम् इति सूत्रेण इत्सम्यायां प्राप्तायाम् अपि आदिरन्त्येन सहेत इति. आदिः अन्त्येन सह इता, अन्त्येन इता सहितः आदिः. आदिः कश्चन आदिमः वर्णः. करणार्थम् अकारः, आदिः अकारः, अन्त्येन इता सहितः, इत्संज्ञकेन वर्णेन सहितः. इदानीम् अत्र णकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा प्राप्ता. अनेन इता सहितः आदिः अकारः मध्यगानाम् इकार उकाराणां स्वस्य च संज्ञा स्यात् इति सूत्रस्य अर्थः. आदिरन्त्येन सहेत इस् अ सूत्र विच् डिफैन्स् प्रत्याहार. I told you about Pratyahara. I told Ann is a Pratyahara which covers A, E, U. How is it? The sutra which defines Pratyahara is Adirantyena Saheta. Adihi, the first letter, any first letter. Antyena Ita Saha, when it joins with an ending letter which is It. Okay? It is an abbreviation for whatever falls in between and of itself, is what the sutra means. Now, halantyam tells you that the ending letter will get it. The ending consonant will be it by halantyam. Adirantena saheta tells you that if there is any letter which is combining with this it samya letter, it will be an abbreviation for whatever falls in between. So, an, a joining with na means a e u. A joining with k means a e u r. A joining with Ch means a e o r l r a o I o etc. Okay, is this clear? Halantyam is a sutra which gives you it samya, And Adhirantena Saheta is a sutra which tells what is a pratyahara. This is what the Maheshwara Sutras are for. Maheshwara Sutrani Anadi Samyarthani. Pratyahara Karanartham Maheshwarani Sutrani Uchyante. Pratyahara Katham Kriyate. Antima Varanasya Halantyam Iti Sutrena Itsamya Kriyate. Tataha Adimaha Varanaha Itsamya Kena Varanena Saha Militva. Pratyaharam Nishpadayati. Akaraha Nakarena Saha Pratyaharasya Bhagaha Ayivuiti. Evameva Hakaraha. Lakarena Saha. Atra Halityatreha Lakaraha Tasyapi Halantyam Iti Itsamya. तस्य अनेन हकारेण प्रत्याहारे कृते सर्वाणि व्यञ्जनानि संगृहीतानि भवन्ति. इफ् यु डू अ प्रत्याहार ऑफ दिस हकार विथ एंडिंग हकार द लकार विच इज एट हल यू विल सी दैट यू हैव कवर्ड ऑल व्यंजन ऑल कॉन्सोनेंट्स कम हियर सय वर ल नियम गण न छ भ ग ध ज प फ छ छ त छ त क प श श स सो यू आर कवरिंग ऑल व्यंजन दैट इज व्हाई Hal means Vyanjana, right? I told you Hal means Vyanjana. Oh, because Hal is a Pratyahara. Pratyahara of this Hakara with that Lakara. Okay? So now you have two sutras. One sutra which tells you the It Samya and the other sutra which tells you a Pratyahara. Is this much clear? Notes in this part. There are two sutras. We have now learned two sutras. One is Halantyam, which tells that any consonant at the end is called it. And there is Adhirantena Saheta, which tells that with such an it samya letter, you can make a pratyahara. Okay? Any questions? Questions?
Lalita ji has a question, but I guess she is still typing it.
I saw a question. Any special meaning for it samya? No. In Vyakarana, the samya need not have a meaning. A samya is just a name. It need not be an anvartha samya. Like, there are some samyas which mean something and they also depict something. Like if you have a sarvanama is that which can be used for everybody. That is why sarva, vishva, etc. are called sarvanamas. There are samyas which have a meaning, but majorly the samya does not have a meaning of itself. It is just some word to denote it. So the word it does not mean anything by itself. It is a name which is given to a series of letters in Vyakarana. Any other questions? Are we clear till here? What is it? What is a pratyahara? How do you make a pratyahara? Should we be reading the Bala Manorama? I think not now. As in, we'll do the Bala Manorama sometime later, but now I think it is too much for most of the people. Whenever there is an occasion, we'll read it. As in when there is something which it explains very clearly. So now what? Eti iti it is, yeah, I mean, yes, you can derive a meaning for that. Vait Samya letters do not stay. As in, as we see later, any letter which is it Samya will get lopa. So since it goes away, it can be called it. Sure. But as I said, it is not necessary that any samya needs to have a meaning. Any other questions?
We can continue somewhere.
So, halantyam it is. सूत्रेण इत्समया एवमेव one second. Kalivaradandi has a question. He asked, is it by itself a pratyahara? No, it is not a pratyahara. There is no no it pratyahara which you can make from the Maheshwara Sutra. It does not denote any words also. Pratyaharas are variations for letters. And it is just a name. Now, halantyam iti sutrena itsamya tathaiva adhirantyena sutrena saheta iti sutrena pratyaharaha iti uktam. Kintu atra kachana samasya asti. Halantyam katham chedaha halantyam iti chedaha. Halantyam iti sutrena iti samya vidhiyate. Kintu asmin sutre hal iti yat padam asti saha pratyaharaha. Hal ityukte vyanjananam kute hayavarat ityukte hakararabhya lakara paryantam pratyaharaha. Pratyaharaha katham jnayante adhirantyena saheta iti sutrena jnayante. Adhirantyena saheta iti sutram pratyaharasya swarupam nirdishati. Antyena ita sahitaha adihi pratyaha abhyadanam sasita samya bhavati iti adhirantyena saheta iti sutraha sutrena pratyaharaha pratyaharasya swarupam jnayante. Hal halantyam iti sutre hal iti yat padam asti tasya jnanartham pratyaharasya jnanam avashyakam. Kintu pratyaharam pratyaharaha adhirantyena saheta iti sutrena vidhiyate. Asmin sutre adihi antyena saha ita iti ekam padam asti. Iti yukte kim iti jnatavyam cheta halantyam iti sutrasya jnanam avashyakam. Jnanam avashyakam bhavati. It iti padasya jnanartham halantyam iti sutrasya jnanam apekshitam. Halantyam iti sutre hal iti padasya jnanartham adhirantyena saheta iti sutrasya jnanam avashyakam. The case here is, in halantyam you have a word called hal. The word hal is a pratyahara. To know what is a pratyahara, you need to know the sutra adhirantyena saheta. Adhirantyena saheta uses a word called it. To know what is it, you need to know that halantyam. Halantyam is a sutra which defines it for you. So, without knowing halantyam, you cannot understand adhirantyena saheta. And without understanding adhirantyena saheta, you cannot understand halantyam. Adhirantyena saheta iti sutrena pratyaharasya jnanam vina halantyam iti sutrasya arunyantum na shakyate. Halantyam iti sutrasya itsamyayaha jnanam vina adhirantyena saheta iti sutrasya jnanam na shakyate. Evam parasparam ashrayataha ime sutre. This sutra, halantyam, depends on adhirantyena saheta and adhirantyena saheta depends on halantyam. This is what we call anyonyashraya. Parasparam ashrayataha. Tasmat anyonyashrayaha. Halantyam iti sutram, adhirantyena saheta iti sutram cha parasparayoha adharenayo bhavataha. Tasmat anyonyashrayaha iti uchyate. Anyonyashrayasya doshaha. Anyonyashraya is a fault in any shastra. You cannot have two things where to know A, you need to know B, and to know B, you need to know A. If that is the case, you will end up knowing neither. You can never know either of them. So that is called a dosha. That is a fault in shastra and which is called anyonyashraya dosha. In this case, between halantyam and adhyena saheta, you have anyonyashraya. Without knowing halantyam, you cannot know adhirantyena saheta. Without knowing adhirantyena saheta, you cannot know halantyam. So how do we solve this problem? And the first thing which Kaumudi does is to solve this problem. So I think we should solve this next class. Just think over and understand the question completely. So we will see the solution in next class. If you do not understand the question, you can ask me. Prashnaah.
No raised hands so far, somebody.
Okay. So, was that clear or was this overhead?
This was good.
Any questions? If not, we'll wrap up for today.
So Lalita ji, she just raised her hand. Maybe we can. She typed.
Okay. Any other? You can ask. Please don't hesitate in asking any questions in Vyakarana. You should never think that you'll sound foolish or dumb by asking questions. It's just that you have to learn means you have to ask. If you did not understand anything, any point, please ask.
So, Swamiji, when is the next class?
The next class is on Monday.
Okay.
Monday night, 8 o'clock. Somavasare, Ratro, Ashtavadane, Ashta. If you have any doubts, you can mail me. We had announced that there will be a separate batch for those who just want to listen to recordings and ask doubts. I think this week we haven't really covered anything much. Still, if you have any doubts, you can always mail me. And if it needs a personal explanation, we might have a session or a Skype call. But otherwise, the doubt clearing session will be from next week. The next class is on, the regular class is on Monday.
Okay, Samyari, I'm going to stop the recording.